इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भारतं सम्प्रति वैश्विक रूपेण प्रतिस्पर्धात्मक व्ययेन विश्वस्तरीय वस्तूनां निर्माणार्थं सर्वाधिकम् उपयुक्तं मन्यते। अमेरिकादेशीय आधारित पत्रिकायाः साक्षात्कारे श्रीमोदी अवदत् यत् ये विश्वसनीयतायाः सरलतायाः च आपूर्ति श्रृंखलां स्थापयितुमिच्छन्ति तेषां कृते भारतं सम्यक् गन्तव्यम् अस्ति। सः अवदत् भारतं एकादशतम स्थानात् सम्प्रति पञ्चमं बृहत्तमं अर्थव्यवस्था कथं जातम् इति जनाः दृष्टवन्तः। प्रधानमन्त्री उक्तवान् सम्प्रति देशः इच्छति यत् भारतं शीघ्रमेव तृतीया बृहत्तमा अर्थव्यवस्था भवतु इति। प्रधानमन्त्रिणा उक्तं यत् भारतं अन्तरिक्ष कृत्रिम बुद्धिमत्ता हरितोर्जा आदिषु भविष्य प्रौद्योगिक्याः क्षेत्रेषु कार्यं कुर्वन् अस्ति। लोकसभा निर्वाचनाय प्रथम द्वितीय चरणयोः प्रचारः तीव्रगत्यां प्रचलति। विभिन्न राजनैतिक दलानां वरिष्ठ नेतारः स्वप्रत्याशिनां समर्थनं प्राप्तुं प्रदातुं च देशस्य विभिन्नेषु भागेषु बहुविधाः सभाः मार्ग प्रदर्शनं च कृतवन्तः। प्रथमचरणस्य मतदानम् अस्मिन् मासे ऊनविंशतिः दिनांके भविष्यति। द्वितीयचरणस्य मतदानम् अस्यैव मासस्य षड्विंशति दिनांके भविष्यति। प्रधानमन्त्रिणा भाजपेति दलस्य वरिष्ठ नेत्रा नरेन्द्रमोदिना ह्यः तमिलनाडु महाराष्ट्रयोः निर्वाचन सभां सम्बोधिता। महाराष्ट्रस्य रामटेक इत्यत्र सम्बोधयता श्रीमोदिना उक्तं यत् आगामि लोकसभा निर्वाचने मतदानं विकसित भारतस्य कृते एव। ततः पूर्वं प्रधानमन्त्री मोदी तमिलनाडु राज्यस्य कोयम्बटूर वेल्लोर नगरयोः सभां सम्बोधितवान्। कांग्रेसदलेन आगामि लोकसभा निर्वाचनाय द्वयोः प्रत्याशिनां सूची प्रकाशिता। जलनातः डॉक्टर कल्याणकाले, डॉक्टर शोभादिनेश महाराष्ट्रस्य बशवधुलेतः प्रतिस्पर्धिष्येते। ईद उल फित्र पर्व अद्य सम्पूर्णे देशे धार्मिक श्रद्धया हर्षोल्लासेन च सह आमान्यते। प्रधानमन्त्रिणा नरेन्द्रमोदिना जनानां कृते ईद उल फित्र पर्वस्य शुभाशयः प्रदत्तः। भारतीय ऋतु विज्ञान विभागेन ह्यः महाराष्ट्रस्य मध्यप्रदेशस्य च केभ्यश्चित् भागेभ्यः नारंगवार्णिकी संचेतना प्रसारिता। अस्य मासस्य त्रयोदश दिनांकं यावत् मध्यप्रदेशस्य छत्तीसगढस्य मध्य महाराष्ट्रस्य च केषुचित् भागेषु एकान्तेषु वज्रपातेन विद्युत्प्रवाहेन पञ्चदश किलोमीटर प्रतिहोरा वेगेन च मध्यमवृष्टिः भविष्यति इति पूर्वानुमानितम्। दक्षिणभारते आगामिषु षड् दिवसेषु तेलंगाना केरल पुदुच्चेरी राज्येषु च एताः परिस्थितयः निरन्तरं भविष्यन्ति। भारतस्य ऋतुविज्ञानविभागेन पूर्वानुमानितं यत् भारतस्य पूर्वी क्षेत्रे केषुचित् भागेषु आगामि चतुर्दिवसेषु प्रायः त्रयस्तपञ्च डिग्रीमितं वर्धिष्यति। अन्य सर्वेषु क्षेत्रेषु सामान्यतापः भविष्यति। इण्डियन प्रीमियर लीग क्रिकेटर्स प्रतिस्पर्धा मालिकायां ह्यः जयपुरे सवाई मानसिंह क्रीडांगणे गुजरात टाइटन्स दलेन राजस्थान रॉयल्स दलं त्रीणि स्तोभैः पराजितम्। तत्रैव अद्य अन्यतमा प्रतिस्पर्धा मुम्बय्याः वानखेड़े क्रीडांगणे मुम्बई इण्डियंस रॉयल चैलेंजर्स बेंगलुरु दलयोर्मध्ये सायं सार्ध सप्तवादने भविष्यति। इति वार्ताः।